अगजानन पद्मार्गम् गजानन महर्निशम् अनेकदन्तम् वन् सेकेण्ड् ऐ फार् अगजानन पद्मार्गम् गजानन महर्निशम् अनेकदन्तम् भक्तानाम् एकदन्तमुपास्महे श्रीमहागणपतये नमः गुरवे सर्वलोकानाम् भीषजे भवरोगिणाम् निधये सर्वविद्यानाम् दक्षिणामूर्तये नमः अस्मद्गुरुचरणारविन्दाभ्याम् नमः ज्ञानानन्दमयम् देवम् निर्मलस्फटिकाकृतिम् आधारम् सर्वविद्यानाम् हयग्रीवम् उपास्महे श्रीहयग्रीवमूर्तये नमः सरस्वती नमस्तुभ्यम् वरदे कामरूपिणी विद्यारम्भम् करिष्यामि सिद्धिर्भवतु मे सदा श्रीमहासरस्वत्यै नमः अस्मद्गुरोर्शरण अस्मद्गुरोर् किं वदामि अस्मद्गुरोर्नमः
गुरवे नमः गुरवे नमः
गुरवे नमः गुरुभ्यो नमः
गुरुभ्यो नमः अस्तु अस्तु सर् अस्तु समीचीनं धन्यवादः भगिनी सर्वेषां स्वागतम् अस्मिन् वर्गे सर्वेभ्यो नमः अस्माकं प्रवर्तमानः विषयः अस्ति सङ्ख्याः इति तस्मिन् विषये वयम् अभ्यासं कृतवन्तः अपि तत्र भेदः कुत्र वर्तते इति अपि दृष्टवन्तः नाम तत्र भेदः कुत्र कुत्र एकतः चत्वारि पर्यन्तम् एका रीतिः अस्ति तदनन्तरं चत्वारितः नवदशपर्यन्तम् अन्या रीतिः तदनन्तरं तत्र विंशतितः शतपर्यन्तं तत्र नवनवतिः पर्यन्तं तत्र रीतिः भिन्ना अस्ति इति तत्र वयं दृष्टवन्तः अपि तत्र विशेषणम् अपि भवितुम् अर्हति तत्र इति सर्वं दृष्टवन्तः किञ्चित् तत्र अद्य किं कुर्मः इत्युक्ते तत्र प्रायशः हा एकवारं तत्र अवैधेयम् इति तद् प्रायशः एकवारं पठामश्चेत् तत्र पुनस्मरणं भवति इति मन्ये अतः तत्र सुजाता भगिनी नमस्कारः
नमस्ते महोदय
नमस्कारः भगिनी अस्तु अतः तत्र एक एतत् अवधेयं बहुवारं पठितवन्तः किन्तु पुनः एकवारं पठामः तदनन्तरम् अग्रे सरामः अतः तत्र शुभदा भगिनी तत्र अवधेयम् इति अस्ति तत्र अस्तु भागे तत्र एकवारं पठति वा भगिनि
आम् महोदय 61 पेज् वा अवधेयम् एकं द्वे त्रीणि चत्वारि इत्यादयः सङ्ख्यावाचकशब्दाः अपि विशेषणानि भवन्ति एकं द्वे त्रीणि
तत् जानीमः खलु तत्र अर्थः अर्थं जानाति खलु भगिनि
आमाम्
हा अस्तु अग्रे
एकं द्वे त्रीणि चत्वारि इत्येतेषां चतुर्णाम् एव त्रिषु लिङ्गेषु भिन्नानि रूपाणि भवन्ति ततः अग्रे त्रिषु अपि लिङ्गेषु समानं रूपं भवति
हा नाम तत्र एकं द्वे त्रीणि चत्वारि तत्र एव इति अस्ति तत्र एव नाम किम्
इत्येतेषां चतुर्णाम् एव इत्येतेषां चत्वारि एव सङ्ख्या चतस्रः एव च सङ्ख्याः सन्ति यस्य लिङ्गेषु यस्य लिङ्गानि लिङ्गानि भिद्यन्ते
हा लिङ्गभेदः येषां लिङ्गभेदः अस्ति समीचीनं भगिनि ततः अग्रे तत्र
ततः अग्रे नाम पञ्च अग्रे त्रिषु अपि लिङ्गेषु समानरूपमेव भवति
हा अतः तत्र पञ्चजनाः वा षट् जनाः वा सप्त पुरुषाः वा सप्त महिलाः सप्त पुस्तकानि सप्त इति एव तिष्ठति हा समीचीनं
तत्र लिङ्गभेदः नास्ति इति
तत्र रूपं समानं तत्र लिङ्गभेदः न दृश्यते समीचीनं भगिनि अस्तु अग्रे शोभा भगिनी अग्रे पठति वा तत्र पञ्च इत्यतः इति
आं महोदय पञ्च इत्यतः आरभ्य नवदशपर्यन्तं सङ्ख्यावाचकशब्दाः नित्यबहुवचनान्ताः भवन्ति तत्र चत्वार निमित्तम् एव तत्र किम् एकवचन द्विवचन इति लिङ्गभेदः दृश्यते. तदनन्तरं पञ्च इत्यतः लिङ्गभेदः न दृश्यते. तदारभ्य नित्य बहुव ते तानि सर्वाणि सङ्ख्याः
तत्र ताः सर्वाः सङ्ख्याः
ताः सर्वाः सङ्ख्याः नित्यबहुवचनान्ताः भवन्ति.
बहुवचनान्ताः भवन्ति नाम तत्र सप्त इति तत्र एकवचने न भवति, तत्र सप्तेभ्यः इति एव खलु सप्तैः इति विभक्तिरूपं पश्यामः तत्र सप्तैः इति तत्र तादृशमेव रूपं भवति खलु सप्तभिः. सप्तैः न सप्तभिः सप्तभिः
तत्र सप्तभिः सप्तभ्यः सप्तभ्यः सप्तानां
सप्तानाम् इति एव तत्र बहुवचनं बहुवचनमेव तत्र वयं पश्यामः. समीचीनम् अस्तु. अग्रिममपि अष्टन् इति शब्दस्य
अष्टन् शब्दस्य अष्ट अष्टौ इति रूपद्वयं भवति. अत्र पश्यन्ती अस्मि, पठामि वा अष्ट इति अष्टौ रूपद्वयं कथं भवति इति महोदय
वदतु भगिनि एकवारं पठतु.
तत्र सप्तम् इति अष्ट इति इत्यस्मिन् पक्षे अष्ट द्वितीया अपि अष्ट अष्टभिः अष्टभ्यः अष्टभ्यः अष्टानाम् अष्टसु इति भवति. द्वितीयस्य पक्षे अष्टौ इति प्रथमा अष्टौ इति द्वितीया अपि अनन्तरम् अष्टाभिः अष्टाभ्यः अष्टाभ्यः अष्टानाम् अष्टासु इति स्त्रीलिङ्ग इति रूपं दृश्यते तत्र. किन्तु
अस्तु तादृशी परिस्थितिः अस्ति तत्र. किन्तु तत्र सौलभ्यार्थं तत्र अष्ट इति एव स्वीकुर्मः, न तु तत्र अष्टौ इति, नो चेत् तत्र अष्टौ इति तत्र द्विवचनम् इति किञ्चित् मनसि क्लेशः
भवति अस्ति वा इति अपि
इति अतः तत्र अष्ट इति स्वीकुर्मः, सारल्यं भवति. अस्तु समीचीनं. मधु महोदय नमस्कारः. प्रिया भगिनी नमस्कारः.
नमस्कारः महोदय, क्षम्यतां वारानन्तरं.
चिन्ता मास्तु महोदय, इदानीं तत्र कुत्र स्मः इत्युक्ते पेज् 61 महोदय, तत्र सङ्ख्यायाः विषये.
नमस्ते महोदय.
प्रिया भगिनी नमस्कारः. नमस्कारः भगिनी. अस्तु अग्रे तत्र उषा भगिनी अग्रे पठति वा तत्र विंशतितः इति.
आं महोदय, विंशतितः नवनवतिपर्यन्तं सर्वे अपि सङ्ख्यावाचकशब्दाः एकवचनान्ताः स्त्रीलिङ्गश्च भवन्ति. अस्तु, विंशतितः आरभ्य नवनवतिपर्यन्तं सर्वेपि सङ्ख्यावाचकः एकवचनम् एव भवन्ति, बहुवचनं न, अपि च स्त्रीलिङ्गे अस्ति महोदय
विंशति. अस्तु समीचीनम्. अतः तत्र विंशतिः इति कीदृशं पदं भवति तर्हि, तत्र हरिवत् अस्ति वा, मतिवद् अस्ति वा, नदीवत् अस्ति वा, किं
विंशतिः
मतिः स्त्रीलिङ्गपदम् अपि ह्रस्व इकारान्तपदं. समीचीनं भगिनि. अतः तत्र मतिवत् इति भवति. समीचीनम्. अपि तत्र चत्वारिंशत् अस्ति चेत् तत्र किं पुनः तत् सरित् इति खलु, तत्र तकारान्तस्त्रीलिङ्गपदम् इति स्वीकर्तुं शक्नुमः खलु भगिनि.
आं महोदय.
तावदेव. इदानीं तत्र यदि तत्र द्विनवतिः अस्ति चेत् तत्र किं द्विनवतिः कीदृशं पदं भवति,
द्विनवतिः
मतिवत् एव, यतोहि तत्र यदि तत्र नवतिः इति रूप तस्य रूपं जानीमः तत्र द्विनवतिः समानमेव, यतोहि तत्र द्वि इति आदौ एव योजयामः न तु अन्ते, अतः तत्र ह्रस्वैकारपदं तत्र स्त्रीलिङ्गम् इति तत्र परिवर्तनं न भवति. द्विनवतिः वा चतुर्नवतिः वा अथवा नवतिः वा समानम् एव खलु. हा अतः तत्र यदि तत्र अग्रे गन्तुं तत्र विभक्तिरूपाणां ज्ञानम् आवश्यकम् इति भवति चेत् तत्र केवलं विंशतिः त्रिंशत् तदनन्तरं किं चत्वारिंशत्
पञ्चाशत्
षष्टिः
सप्ततिः
नवतिः शतं नवतिः तदनन्तरं शतम् इति तत्तु नपुंसकलिङ्गम् अथवा पुल्लिङ्गं नपुंसकलिङ्गम् इति स्वीकुर्मः. कुत्रापि प्रायशः पुल्लिङ्गे अपि दृश्यते किन्तु नपुंसकलिङ्गम् इति स्वीकुर्मः. अस्तु तर्हि एतत् सर्वं वयं दृष्टवन्तः अवगतवन्तः इति मन्ये. अतः इदानीं तत्र अग्रे सरामः. तत्र अन्तिमभागः तत्र पुटसङ्ख्या अस्ति 61 67 तत्र सरामः. तत्र नरेश् महोदय आरम्भं करोति वा तत्र
67 आं महोदय. संख्यावाचक शब्दसहितानि एतानि सुभाषितानि पठत अवगच्छत च. एक एव खगो मानी वने वसति चातकः पिपासितो वा म्रियते याचते वा पुरन्दरम्
इति अस्ति. तत्र तत्र संख्या कुत्र अस्ति?
एकः अस्ति.
एकः इति अस्ति. अस्तु समीचीनं. हा तत्र प्रथमश्लोकः एकः इति अस्ति. तत्र एक एव तदनन्तरं किम् अस्ति?
एक एव खगः.
खगः खगः नाम किम्?
पक्षी.
पक्षी. हा समीचीनम्. अतः एकः एव खगः पक्षिः. हा तदनन्तरं किम् अस्ति तत्र? हा
वसति
वने
वने वने वसति चातकः.
हा अस्तु. तत्र क्रियापदं किम् अस्ति? वसति.
वसति.
हा वसति इति क्रियापदम् अस्ति. हा इदानीं तत्र कर्तृपदं किम् अस्ति तत्र एतावत्?
खगः.
खगः. हा एकः खगः इति. हा समीचीनम्. एकः खगः इति अस्ति. समीचीनम्. एकः खगः वसति. सः कुत्र वसति खगः?
वने वसति.
वने वसति. हा अपि तत्र खगः कः? तत्र चातकः नाम खगः. चातक इति तत्र पक्षिविशेषणं. हा तत्र हा तत्र एकविधपक्षिः. हा चातकः नाम पक्षिः. चातकः इति साक्षात् तस्य नाम इति न, किन्तु चातक इति तादृशपक्षिः. हा एकविधपक्षिः इति. सः एक एव चातकः तत्र वसति वने. मानी इति अस्ति. मानी इति तत्र मानी नाम किम्?
मानी अहं न जानामि. मानी
अभिमानी इति तत्र. अभिमानः इति अभिमानः इत्युक्ते किम्?
अभिमानः यः
स्वस्य उपरि गर्वः.
आम्
अहं बहु किं ज्ञातवान्. अहं मम अस्तु मम अभिमानम् अस्ति स्वस्य कृते. हा तत्र मनसि प्रशंसा यदि अस्ति चेत् तत् हा गर्वः. हा तादृश अभिमानी तादृशः सः अस्ति चातकः. इदानीं तत्र अग्रे
पिपासितो पिपासितो वा म्रियते याचते वा पुरन्दरं वा पुरन्दरम्. पिपासितो तु जलमिच्छति.
हा तत्र पिपासितः पिपासितः जलम्. हा जलं जलस्य इच्छा पातुम् इच्छा किमस्ति? पातुम् इच्छा किमस्ति?
जलं
न पातुम् इच्छा. तत्र पातुं नाम पिबति. पिबति इति पदस्य तुमुन् रूपं किम् अस्ति?
पातुं.
पातुं हा पातुम् इच्छा अस्ति चेत् तत्र पिपासा अस्ति इति वदामः हा पिपासा अस्ति तस्मिन् पिपासा अस्ति इति कृत्वा सः पिपासितः कः पिपासितः कः पिपासितः
पिपासितः वा म्रियते याचते वा पुरन्दरम् पुरन्दरं किम् अस्ति
पुरन्दरं नाम इन्द्रस्य अन्यनाम इन्द्रः
यते याचते वा
पुरन्दरम् अस्तु तावत्पर्यन्तं समीचीनमेव अस्ति महोदय इदानीम् अग्रे अन्य कोऽपि करोतु तत्र गीताञ्जलिभगिनी नमस्कारः अग्रे तत्र श्लोकस्य द्वितीयभागं करोति वा भगिनि नमस्कारः भगिनि
पठामि वा द्वितीयभाग
तत्र पिपासितो वा इति हा
ओ तत्र एक एव खगो मानी वने वसति चाकः चातकः पिपासितो वा म्रियते याचते वा पुरन्दरं पुरन्दरम् तत्र इत्युक्ते
पिपासितः इति अवगतं खलु पिपासितः
जलस्य इच्छा
जलस्य पातुं तत्र जलं पातुम् इच्छा अस्ति
म्रियते वा याचते वा
म्रियते नाम तत्र मरणं भवति तस्य
विवक्षा
याचते नाम याचते नाम
याचते इत्युक्ते इच्छते
ददातु मह्यं ददातु इति तत्र याचते तत्र याचकः इति जानीमः तत्र याचते हा याचते वा पुरन्दरं अत्र कः याचते अथवा का याचते तत्र
इत्युक्ते इन्द्रम्
इन्द्रं याचते
इन्द्रं याचते
किन्तु कः याचते अथवा का याचते
ओ अस्तु अस्तु कर्मपदं तु इन्द्रं कः इत्युक्ते खगः
खगः नाम अत्र चातकः 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 म्रियते वा याचते वा पुरन्दरम्
अस्तु अत्र चातकः म्रियते वा
चातकः पिपासितः भवति यदि चातकः पिपासितः भवति सः किं करोति म्रियते अथवा अन्यं कमपि सः न याचते केवलं पुरन्दरम् एव याचते नाम भगवन्तमेव याचते अन्यं कमपि न याचते जलं ददातु इति न याचते
इत्युक्ते चातकः इच्छति इन्द्रम् आगच्छति वा
अस्तु अस्तु अग्रे अस्तु अधोभागे पठतु
ओ अस्तु अस्तु वने वने वसत्सु पक्षिषु चातकपक्षी अत्यन्तं स्वाभिमानी
नाम
इत्युक्ते चातकः अति स्वाभिमानी इति
स्वस्य उपरि गर्वं
अधिकगर्वः
इति चातकपक्षी
सः जलार्थं भगवन्तम् इन्द्रमेव याचते न तु अन्यं किमपि
कमपि कमपि
सोरि कमपि इत्युक्ते अभिमानस्य कारणेन कारणेन सः चातकः पिपासितः अस्ति किन्तु इन्द्रमेव याचते सः
अग्रिमवाक्यं
पिपासया मरणावस्थामेव प्राप्नुयात् चेदपि सः इन्द्रात् अन्यं न याचते अस्तु पिपासया इति तु तृतीया
कारण पिपासया मरणावस्थां एव
एव प्राप्नुयात् इत्युक्ते चेत् अपि इत्युक्ते यदा सः मरणस्य
मरणकालः समीपः अस्ति हा तस्मिन् सन्दर्भे अपि सः किम्
मरणसमयः समीपम् अस्ति चेत् अपि सः केवल इन्द्रमेव याचते
हा इन्द्रात् अन्यं न याचते इन्द्रात् अन्यं नाम पञ्चमी इन्द्रात् अपि प्राप्नुयात् इति विधिलिङ्ग् न जानीमः एतावत् हा प्राप्नुयात् प्राप्नुयात् इति विधिलिङ्ग् हा अस्तु
मनसि इति चिन्तयति यदि इन्द्रः आगच्छति तु समीचीनम् अन्य किमपि
इन्द्रमिति न तत्र भगवतः अनुग्रहात् जलं लभ्यते चेत् पिबामि नो चेत् न पिबामि इति अन्यं कमपि न पृच्छामि अथवा हा इति याच अथवा अन्यं कमपि अहं न याचे
तत्र महोदय इन्द्रम् इत्युक्ते वृष्टिः अपि भवितुमर्हति न
हा तदपि भवितुमर्हति भगिनि सत्यं सत्यं तत्र भगवतं तत्र भगवतकारणेन तत्र यदि जलं लभ्यते तर्हि स्वीकरोमि किन्तु तत्र कमपि न पृच्छामि इति
पिपासितः
मरणम् अपि
हा
इति तस्य चातकस्य अस्तु हा समीचीनं हा अस्तु इदानीं तत्र प्रिया भगिनी इदानीं तत्र स एव सुभाषितं एतदेव सुभाषितं पुनः एकवारं स्वशब्दैः वदति वा भगिनि
आम् महोदय प्रयत्नं करोमि एकः खगः वने वसति सः खगः चातकः अस्ति सः पिपासा अस्ति चेत् अपि सः अन्यात् जलं न स्वीकरोति केवलं इन्द्र भगवन्तम् इन्द्रम् एव प्रार्थनां कृत्वा सः जलं ददाति चेत् अपि चेत् एव पिबति नो चेत् मरणं समीपम् अस्ति चेत् अपि सः अन्य कमपि जलं न पिबति
हा तत्र अन्यं जलं न याचते हा समीचीनं भगिनि हा अस्तु इदानीं तत्र एकः पक्षी अस्ति किन्तु तत्र एव इति अस्ति खलु एक एव खगः मानी अस्ति खलु तत्र एव नाम किमर्थं तत्र
अन्य कोऽपि खगः एतत् रीत्या न करोति केवलं चातकः खगः एव
समीचीनम् अतः तत्र समीचीनं भगिनि अतः तत्र एकः एव तत्र खगः खगाः अनेकाः सन्ति किन्तु अनेके सन्ति किन्तु तत्र एकः एव खगः अस्ति यः अभिमानी अस्ति हा तत्र एकः एव खगः मानी नाम एकः एव अभिमानी अस्ति हा अन्ये तत्र तादृशः नासन्ति इति समीचीनं भगिनी अपि तत्र पिपासितः म्रियते तत्र आत्मनेपदी इति म्रियते याचते वा पुरन्दरं तत्र याचते इति पदस्य तत्र वदतु भगिनि
म्रियते इति कर्मणि रूपम् अहं चिन्तयामि
हा प्रायशः म्रियते इति कर्मणि रूपं वा तत्र अथवा तत्र आत्मनेपदि धातु साक्षात् इति वा
ओ अस्तु
आत्मनिपदि अपि भवितुम् अर्हति इति मन्ये भगिनि हा तत्र एकनिमिषः न स्मरामि कोऽपि पश्यति वा तत्र म्रियते इति तत्र
मृधातोः कृधातु क्रियते इति अस्ति चेत्
मृधातु सत्यं कृधातुः क्रियते एतत् मृधातुः हा म्रियते इति हा तदत लट्लकारः एव तत्र अतः कर्तृ एव
ओ लट्लकार एव महोदय मृधातुः मृयति
म्रियते इति हा
परन्तु तस्य कर्मणि रूपमपि म्रियते एव
अतः तत्र अतः भेदः नास्ति हा अतः हा अत्र तु भगिनी तत्र इदानीं तत्र जाने अवगतवन्तः ततः तत्र म्रियते कर्मणि भवति कर्त्री अपि भवति किन्तु तत्र पिपासितः सः म्रियते इति अस्ति अतः तत्र कर्त्री एव यतोहि तत्र तृतीयविभक्तिः नास्ति खलु अत्र पिपासितः सः पिपासितः म्रियते वा याचते वा पुरन्दरम् अतः तत्र समीचीनम् इदानीं तत्र मनसि स्थापितुं शक्नुमः म्रियते इति तत्र कर्त्री अपि कर्मणि समानरूपम् अस्ति इति समीचीनम् अस्तु धन्यवादः भगिनी अग्रे तत्र एतावत् तत्र कः न उक्तवन्तः तत्र सुजाता हा वेदा भगिनी तत्र वने वने वसत्सु इति अस्ति खलु वने वसत्सु पक्षिषु तत्र तस्य वाक्यस्य किञ्चित् विवरणं करोति वा
वने वने वसति चातकः
न न न तत्र तत्र सुभाषितं न किन्तु तत्र अधोभागे तत्र
वसत्सु पक्षिषु चातकपक्षी अत्यन्तं स्वाभिमानी
हा स्वाभिमानी इति तत्र कीदृशपदम् अस्ति
स्वाभिमानः स्वाभिमानः शानच् प्रत्यय स्व अभिमानी
हा अस्तु तत्र स्वाभिमानः इति किन्तु मानी इति अस्ति तत्र कीदृशपदं
स्वाभिमानी के स्वाभिमानी
स्वाभिमानिन् अस्ति वा
हा मानिन् स्वाभिमानिन् गुणिन्वत् हा गुणिन्वत् स्वाभिमानिन् स्वाभिमानी इति हलन्तपदम् अपि तत्र पक्षिषु तत्र
सप्तमी विभक्ति अस्ति बहुवचने
अपि वसतु
विशेषणमस्ति
विशेषणमस्ति समीचीनं हा इदानीं तत्र वसत्सु पक्षिषु इति अस्ति तत्र प्रथमविभक्ति एकवचने किम् अस्ति
प्रथम विभक्ति एकवचने वसत्सु वसः वा वसः वसः पक्षी वा पक्षी
हा तत्र वसः नाम तत्र अकारान्तपदं वा न
वसन् महोदय वसन्
हा वसन् वसन् शत्रन्त अस्ति नाम तत्र पक्षी वसन् अस्ति खलु वने वसन् अस्ति
वसन् पक्षी वसन्
हा अतः तत्र वसत् इति प्रातिपदिकं वसन् पक्षिः इति प्रथमविभक्ति वसन् पक्षी वसत्सु पक्षिषु हा चातकपक्षी अत्यन्तं स्वाभिमानी हा जलार्थं
सः जलार्थं भगवन्तम् इन्द्रमेव याचते
हा
जलार्थं जलम्
जलाय जलाय इति तत्र जलार्थं नाम चतुर्थी इति स्थापितुं शक्नुमः खलु तत्र किमर्थं नाम
जलाय भगवन्तम् इन्द्रमेव इन्द्रम् एव याचते
हा अन्यं
भगवन्तम् इन्द्रम्
भगवन्तम् इन्द्रमेव याचते न तु अन्यं
कमपि
न याचते नाम तत्र अन्यं कमपि न याचते
याचते
तत्र याचते इति तत्र प्रायशः तत्र द्विकर्मकक्रियापदम् इति मन्ये अतः तत्र जलं भगवन्तम् इन्द्रमेव याचते इति अपि वक्तुं शक्नुमः तत्र यथा पृच्छति इति अस्ति तत्र द्विकर्मकः अस्ति
कर्मकधातूनां कृते नाट् सर्वे दातवः न भवन्ति
सत्यं 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 हा 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 सत्यं भगिनि अग्रे अग्रे एषः विषयः आयाति पश्यामः किन्तु तत्र पृच्छति याचति तत्र वदति तत्र हा तत्र किम् अस्ति तत्र याचति अस्ति इति चिन्तितवान् हा याचति किन्तु तत्र याचते इति अस्ति हा याचते इति अस्ति तत्र आत्मनेपदीरूपम् अस्ति चेत् तत्र पुनः द्विकर्मकः इति सत्यं भगिनि हा किन्तु याचति अथवा याचते वा तत्र आत्मनि उभयपदी अस्ति वा प्रायशः याच् हा
याच् दातु दत्तं तत्र
प्रायशः अतः द्विकर्मकः
परस्मैपति एव आत्मनेपति अपि
उभयपदी अस्ति
उभयपदी अस्ति हा किन्तु द्विकर्मकः इति तत्र उभयपदीनां तत्र प्रायशः द्वयमपि उभयोः तत्र द्वयमपि द्विकर्मकः इति मन्ये इति मम चिन्तनं, किन्तु एकवारं प्रष्टव्यम् अस्ति. अस्तु, हा, अतः तत्र जलं भगवन्तम् इन्द्रमेव याचते इति अपि वक्तुं शक्नुमः इति मन्ये. तत्र पिपासया
पिपासया मरण अवस्था एव प्राप्नुयात् चेत् अपि सः इन्द्रात् अन्यं न याचते.
इन्द्रात् अन्यं न याचते. तत्र हा तत्र पूर्वं तत्र एव नाम तत्र सीमा, तत्र सीमा आसीत्, तत्र केवलं केवलम् इति अर्थे तत्र केवलं सः अभिमानी आसीत्. इदानीं तत्र मरणावस्थाम् एव तत्र एव इति तत्र किं सीमा इति वा अथवा न तत्र मरणं तद् हा तद् प्राप्नुयात् अपि तत्र तस्मिन् एम्फसिस् अस्ति. ओ तद् मरणावस्थाम् एव प्राप्नुयात् चेदपि सः इन्द्रात् अन्यं
न याचते.
अन्यं न याचते,
केवलम्
इन्द्रमेव याचते. हा इति समीचीनं भगिनि,
याचते
समीचीनं भगिनि. अस्तु अस्तु समीचीनम्. अस्तु धन्यवादः. अस्तु मधु महोदय, अग्रिमश्लोक सुभाषितं पठति वा एकवारम्? पूर्णं पठतु, तत्र सुभाषितं पठित्वा अधोभागे यत् लिखितमस्ति तदपि तत्र विवरणमपि एकवारं पठतु महोदय.
अस्तु महोदय. विद्या शस्त्रं च शास्त्रं च द्वे विद्ये प्रतिपत्तये. अद्य हास्याय वृद्धत्वे द्वितीया द्रियते सदा.
द्वितीया आद्रियते सदा.
द्वितीया द्रियते सदा. अस्तु. यत् किमपि कार्यं साधयितुं शस्त्रं शास्त्रं चेति विद्याद्वयं वर्तते. अद्य किमपि कार्यं साधयितुं
शस्त्रं नाम किम् अस्ति? शस्त्रं नाम
शस्त्रं नाम वारियर्
युद्धे तत्र आयुधं
शास्त्रं नाम शास्त्रं
शास्त्रं नाम तत्र यत् पठामः तत्र हा शास्त्रम्. अतः तत्र किमस्ति? तत्र विद्या
विद्याद्वयं
विद्याद्वयं तत्र नाम एकमस्ति शस्त्रविद्या, एका अस्ति शस्त्रविद्या, अन्या अस्ति शास्त्रविद्या.
शास्त्रविद्या
अतः तत्र विद्याद्वयं वर्तते.
प्रथम शस्त्रविद्या
वार्धक्ये
प्रथमा शास्त्रविद्या वार्धक्ये हास्यासंपदं
हास्यास्पदं
भवति.
तत्र हास्यास्पद वार्धक्ये नाम किं?
वार्धक्य
वर्धन्ति वर्धते इति तत्र वर्धनं नाम
वर्धनं ग्रो.
समीचीनम्. अतः तत्र वार्धक्यः नाम यस्य वयसः वर्धनम् अभवत् सः वृद्धः इति वदामः खलु. वृद्धः नाम यस्य वयसः वर्धनम् अभवत् सः वृद्धः. तत्र वार्धक्ये नाम तत्र तस्मिन् सन्दर्भे तत्र वृद्धावस्थे इति हा वृद्धावस्थायां वार्धक्ये तस्मिन् समये तत्र शस्त्रविद्या जानाति किन्तु तत्र यदि शस्त्रविद्यायाः उपयोगं तत्र वृद्धाकाले तत्र कुर्मः तत्र किं भवति?
हास्यास्पदं भवति.
हास्यास्पदं भवति खलु. तत्र केवल प्रायशः भीष्मः सः कर्तुं शक्नोति किन्तु अन्य कोऽपि तत्र वार्धक्ये तत्र शस्त्रविद्यायाः प्रयोगं न कर्तुं शक्नोति. तत्र अतः तत्र शस्त्रविद्या तत्र प्रथमा विद्या अस्ति. तत्र तत् सा विद्या वार्धक्ये हास्यास्पदं भवति. किन्तु द्वितीया विद्या किम् अस्ति?
परं द्वितीया शास्त्रविद्या सदैव गौरवास्पदं
हा गौरवास्पदं भवति. नाम परं नाम परन्तु किन्तु इति अर्थे परं नाम परन्तु किन्तु द्वितीया शास्त्रविद्या किं सदैव तत्र बाल्यकाले वा यौवनकाले वा वृद्धाकाले वा तत्र किं सदा एव
गौरवास्पदं भवति
नाम तत्र गौरवमेव तत्र तेन भवति गौरवं भवति न तु हास्यं तेन आगच्छति इति. अस्तु समीचीनं वा महोदय. तत्र हा साधयितुं तत्र साधयति इति पदस्य तुमुन् वर्तते तत्र. अस्तु समीचीनं महोदय. अस्तु अग्रे तत्र शुभदा भगिनी
तत्र प्रतिपत्तये इति किं रूपं महोदय?
प्रतिपत्तये तत्र वर्तते इति अर्थे तत्र अस्ति इति तत्र प्रसिद्धश्लोकः अस्ति. प्रतिपत्तिः तत्र चतुर्थीविभक्तिः प्रतिपत्तिः उत्पत्तिः उत्पत्तिः अस्ति तत्र 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 विद्ये प्रतिपत्तये तत्र कर्तुं तत्र कर्तुं तत्र वर्तते तत्र प्रतिपत्तिः प्रसिद्धश्लोके अस्ति भगिनि वागर्ताविव सम्पृक्तो वागर्त प्रतिपत्तये जानन्ति खलु सर्वे. कः जानाति? वागर्ताविव सम्पृक्तो वागर्त प्रतिपत्तये जगतः पितरो वन्दे पार्वती परमेश्वरौ कुमारसम्भव इति अथवा तत्र कालिदासस्य रघुवंशस्य प्रथमश्लोकः तत्र वागर्ताविव सम्पृक्तो वागर्तप्रतिपत्तये तत्र वाग् अपि अर्थः तत्र तत् कर्तुं तत्र तत्र प्रतिपत्तिः नाम वर्तते इति अर्थे भगिनि यथा अत्र अस्ति प्रतिपत्तिः नाम वर्तते विद्या वर्तते साधयितुं तत्र सर्वं कार्यं साधयितुं तत्र वर्तते इति अत्र यत्र यथार्थं दत्तमस्ति तदेव तत्र प्रतिपत्तः प्रतिपत्तिः इति पुनः तत्र सुभाषितं पठित्वा किञ्चित् विवरणं करोतु भगिनि.
प्रयत्नं करोमि. विद्याशस्त्रं च शास्त्रं च द्वे विद्ये प्रतिपत्तये आद्या हास्याय वृद्धत्वे द्वितीया द्रियते सदा. तत्र अर्थः किमित्युक्ते अर्थः कः इत्युक्ते शस्त्रविद्या अपि च शास्त्रविद्या एते द्वे विद्ये किमपि कार्यं कर्तुम् इच्छामः चेत् एते द्वे विद्ये उपयोगी भवतः.
तत्र नदी उपयोगी अस्तु विद्या इति अस्तु तत्र प्रायशः उपयोगी अस्ति चेत् विद्या इति स्त्रीलिङ्गे अस्ति इति कृत्वा भगिनी उपयोगी नौ इति प्रायशः अस्ति विद्या उपयोगिनी उपयोगिनी विद्या खलु
नदी नद्यौ
नदी नद्यौ अतः तत्र उपयोगिन्यौ विद्ये इति
उपयोगिन्यौ विद्ये विद्या अपि च शास्त्रविद्या इति द्वे विद्ये उपयोगिन्यौ स्तः परन्तु तस्यां शस्त्रविद्या इति कोऽपि वृद्धः अस्ति चेत् तस्य कृते शस्त्रविद्या हास्यास्पदं भवति. तत्र शस्त्रविद्या तु तस्य कृते उपयोगिनी नास्ति.
यतोहि तत्र देहस्य तत्र किं देहस्य शक्तिः तस्मिन् समये नास्ति अतः तत्र दुर्बलः अस्ति किन्तु तत्र देहः दुर्बलः अस्ति चेदपि तत्र मन मनसः तीक्ष्णता भवितुम् अर्हति खलु.
परन्तु वयसा वृद्धः अस्ति, अतः शस्त्रविद्या तु वृद्धस्य कृते उपयोगिनी नास्ति. परन्तु द्वितीया शास्त्रविद्या तु सदैव तस्य विद्याया शास्त्रविद्यायाः गौरवम् आदरं जनेषु सर्वदा भवति.
हा, अतः तत्र आदरं जनयति, सर्वदा आदरं जनयति, अतः तत्र आद्रीयते इति.
आद्रीयते,
हा, आद्रीयते नाम आदरं जनयति, आदरं करोति इति. अपि तत्र वृद्धत्वे इति तत्र पुनः तत्र वृद्धः इति अथवा वृद्धा इति तत्र तस्य भावः वृद्धत्वम् अथवा तदेव तत्र वार्धक्यम् इति तत्र समानार्थकः पुनः भाववाचकः वार्धक्यं वार्धक्ये अथवा वृद्धत्वं सप्तमी वृद्धत्वे इति. वृद्धत्वे
तस्य द्रु इति धातुः भवति, अहं दृष्टवती अष्टाध्यायीमध्ये द्रु इति धातुः भवति. द्रु इति तुदादिगणीय आत्मनेपदी धातुः अस्ति, सकर्मकः. तस्य आद्रीयते इति कर्तरि लट्लकारे प्रथमपुरुषे एकवचने रूपं भवति. आद्रीयते आ इति उपसर्ग,
आ इति उपसर्गः, समीचीनम्. आद्रीयते अतः आदरं जनयति,
आदरः इति गृहन्तरूपम् आसीत्.
समीचीनं भगिनि, हा, अतः हा समीचीनं भगिनि, हा अस्तु. तत्र द्वितीया विद्या आद्रीयते सदा आद्रीयते, अतः तत्र बालावस्थायां वा प्रौढावस्थायां वा तत्र सदा गौरव.
आयोः सम्बन्धः नास्ति.
आयोः सम्बन्धः समीचीनं भगिनि, हा,
आयोः शास्त्रविद्या इति गौरवास्पदम् आदरास्पदं भवति
इति. हा, समीचीनं भगिनि, अस्तु अस्तु. अग्रे नरेश महोदय इदानीं तत्र तृतीयश्लोकः पठति वा एकवारम्.
आं महोदय. पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितं मूढैः पाषाणखण्डेषु.
प्रथमभागमेव तावत्पर्यन्तम् एकवारं पुनः पठित्वा तत्र किं किम् अस्ति इति वदतु महोदय.
पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम्.
हा, नाम पृथिव्यां नाम
पृथिव्यां
विभक्ति
सप्तमी विभक्ति. त्रीणि रत्नानि
तत्र भूलोके खलु, भुवने भूलोके, अथवा भुवि, हा भुवि.
त्रीणि रत्नानि जलमन्नं
सुभाषितम्.
ओ, सुभाषितम्.
तत्र रत्नानि कानि?
जलम्, अन्नम् अपि च सुभाषितम्.
हा, इति इति त्रीणि रत्नानि सन्ति कुत्र? पृथिव्यां, नत्र नाम भूलोके, भूलोके अथवा भूमौ, भुवि. हा, इति समीचीनं महोदय, अस्तु. अग्रे उषा भगिनी द्वितीयभागः.
मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते. मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते. मूढैः इत्युक्ते मूर्खाः पाषाणखण्डेषु, पाषाणखण्डान्
पाषाणखण्डेषु, तत्र पाषाण इति न पाषाण इति,
पाषाणखण्डान्.
पाषाण नाम किम्?
किं वदामि महोदय, स्टोन् अस्ति न
महोदय, तत्र पाषाणखण्ड खण्डेषु तत्र नाम
सप्तमी विभक्त्याम् अस्ति. पाषाणखण्डेषु रत्नसङ्ग्रहः
भगिनि पाषाण
पाषाणखण्डेषु मूर्खाः पाषाणखण्डेषु रत्नानि इति मन्यन्ते ते मूर्खाः
पुनः ते मन्यन्ते इति अस्ति चेत् मूर्खाः मन्यन्ते किं मन्यन्ते
पाषाणखण्ड एव रत्नसंज्ञा इति मूर्खाः मूढजनाः
मूढजनाः किं चिन्तनं तेषां चिन्तनं किं मूढजनानां चिन्तनं किं
मूढजनानां चिन्तनम् अस्ति यदि पाषाणखण्डेषु एव रत्नसंज्ञा विधीयते इति
रत्नसंज्ञा विधीयते नाम किं तत्र मूढैः विधीयते मूढैः विधीयते अत्र तु कर्मणि अस्ति मूढैः विधीयते
इत्युक्ते वज्रं
न न तत्र विधीयते संज्ञा रत्नसंज्ञा विधीयते नाम
रत्नानि मन्य रत्नसंज्ञा
रत्नसंज्ञा नाम तदेव रत्नम् अन्यत् रत्नं नास्ति इति ते चिन्तयन्ति
इत्युक्ते डैमण्ड् इति चिन्तयन्ति
तदेव रत्नम् इति चिन्तयन्ति किन्तु
अन्नं जलं सुभाषितं ते एव त्रीणि
तत्र रत्नानि नाम तत्र रत्नम् इत्युक्ते किं रत्नम् इत्युक्ते किम् साधारणरीत्या पाषाणखण्डं रत्नम् इति किन्तु अन्यः अर्थः
अन्नं जलं
न अन्य केवलं रत्नम् इत्युक्ते यस्य मूल्यम् अधिकम् अस्ति इति अमूल्यं यत् अस्ति तद् रत्नम् इति
रत्नम् इत्युक्ते पर्टिक्युलर्लि किमपि अस्ति वा महोदय
न रत्नं नाम यस्य अमूल्यवस्तुः इति तत्र तस्य महत्त्वम् अस्ति इति किन्तु साधारणतया किं चिन्तनम् अस्ति तत्र रत्नम् अथवा अमूल्यं नाम पाषाणखण्डमेव अमूल्यं तत्र रत्नम् इति चिन्तयामः किन्तु किमस्ति
मूढाः जनाः तु पाषाणखण्डेषु
न तत्र विधीयते मूढाः किं चिन्तयन्ति पाषाणखण्डमेव रत्नम् इति
चिन्तयन्ति
हा
इति इत्युक्ते
कर्मणि दीयते तत्र
तृतीयविभक्त्या
दीयते मूढैः विधीयते इति हा कर्मणि प्रयोगः
विधीयते इत्युक्ते चिन्तयन्ति इति
न रत्नसंज्ञा विधीयते तत्र तत्र ते पश्यन्ति तैः दृश्यते तत्र एतद् रत्नम् इति तत्र दृश्यते नाम तत्र तृतीया इति तृतीया कर्मणि अर्थः नाम तेषां चिन्तनं तदस्ति तत्र तदेव रत्नम् अन्यत् रत्नं नास्ति अस्तु इदानीं तत्र सुजाता भगिनी तत्र अधोभागे तत्र विवरणमस्ति तत् एकवारं पठति वा भगिनि
अन्नं सुभाषितम् इति त्रीणि रत्नानि सन्ति
भगिनि तत्र सम्यक्तया न श्रूयते भगिनि इदानीं श्रूयते वदतु भगिनी पुनः तत्र सम्यक्तया नास्ति भगिनी किञ्चित् उच्चैः वदतु सम्यक् नास्ति भगिनी सम्यक्तया न श्रूयते भगिनी
पुनरेकवारं लागिन् कृत्वा आगच्छतु भगिनी
प्रयत्नं करोति वा भगिनी पुनः एकवारं निर्गत्य पुनः लॉग इन करोति चेत् प्रायशः अस्तु भवती तत् करोतु भगिनि एकनिमिषः अन्यत् अन्य कोऽपि पठति तस्मिन् समये हा तदनन्तरं भवती आगत्य करोतु अस्तु शोभभगिनी अग्रे पठतु तत्र
अस्तु महोदय अभिवादनशीलस्य जगति भूमौ जलम् अन्नं सुभाषितं चेति त्रीणि रत्नानि सन्ति किन्तु मूढाः जनाः पाषाणखण्डान् एव रत्नानि मन्यन्ते तत्र यथा भवान् उक्तवान् रत्नानि किं तत्र मूलतः रत्नानि इत्युक्ते जलम् अन्नं सुभाषितम् इति भवनीयं किन्तु ते तु ये किं तस्य मूल्यं ज्ञातवन्तः ते एव जानन्ति किन्तु मूढजनाः पाषाणखण्डेषु इत्युक्ते तत्र रत्नानि वज्राणि इति भवितुम् अर्हति किन्तु तत्र किं अन्यत् अधुना अन्येषु विषयेषु अपि यत्र अमूल्यवस्तुः अस्ति तत्र तस्य मूल्यं ते न जानन्ति
तत्र केवलं तत्र पाषाणखण्डेषु एव तत्र मूल्यम् अस्ति तत्र अन्यत्र कुत्रापि तत्र मूल्यं नास्ति इति अतः तत्र रत्नं नाम केवलं पाषाणखण्डम् इति ते चिन्तयन्ति
हा तत्र यद्यपि किं तत्र तत्तु आब्वियस् अस्ति पाषाणखण्डेषु रत्न इति ते एव तदेव पश्यन्ति यत् न दृश्यते तत् न पश्यन्ति
हा तत्र अन्येषु विषयेषु अपि तत्र मूल्यम् अस्ति अधिकम् अस्ति इति ते तत्र ते न चिन्तयन्ति
न चिन्तयन्ति अथवा न पश्यन्ति
हा समीचीनं अस्तु समीचीनं भगिनि अस्तु इदानीं तत्र सुजाता भगिनी इदानीं श्रूयते वा
मेटाफोरिकल् इति वक्तुम् इष्टवती महोदय
तत्र उपमानं उपमानं
मेटाफोरिकल् इति किं महोदय
उपमानम् इति तत्र तादृशम्
उपमानम् अस्तु अस्तु धन्यवादः
सुजाता भगिनी इदानीमपि सम्यक् नास्ति भगिनि क्षम्यताम् श्रूयते वा भगिनि यत् अहं वदामि तत् श्रूयते वा अस्तु अस्तु किन्तु यत् भवती वदति तत्र मया न श्रू तत्र तद् न श्रूयते हा अस्तु भो भगिनि अतः शृणोतु किन्तु हा अस्तु भगिनि अस्तु अस्तु अग्रे तत्र हा चिन्ता मास्तु भगिनि अस्तु अग्रे प्रिया भगिनी अग्रिमम्
महोदय अग्रिमं सुभाषितं वा
हा अग्रिमं सुभाषितं हा
अभिवादनशीलस्य नित्यं वृद्धोपसेविनः चत्वारि तस्य वर्धन्ते आयुर्विद्या यशो बलम्
प्रथमभागः स्वीकृत्य किञ्चित् वदतु भगिनि तत्र हा
अस्तु अस्तु महोदय अभिवादनशीलः कोऽपि अस्ति तस्य नित्यं वृद्धोपसेविनः किमपि न
अस्तु तत्र अभिवादिशालस्य अस्तु अतः तत्र एतत् करोतु तत्र अधोभागे तत्र यदस्ति तदपि एकवारं पठतु तत्र
ज्येष्ठानाम् अभिवादनस्य स्वभावः यस्य अस्ति यः वयोवृद्धानां ज्ञानवृद्धानां च सेवनं करोति तस्य आयुः विद्या यशः बलं चेति एतानि चत्वारि वर्धन्ते ओ अस्तु अभिवादनशीलः यः अस्ति यस्य वृद्धस्य नमस्कारं करोति यः वयस्
तत्र अस्तु अस्तु भगिनि एतत् कुर्मः अभिवादन अभिवादन नाम
यः प्रणाम प्रणामः
हा समीचीनं समीचीनं भगिनि हा तत्र नमति यः तत्र वृद्धं दृष्ट्वा नमति तत्र तत्र अभिवादन शीलः शीलः नाम तादृशगुणः गुणवान् अथवा गुणवती तत्र शीलः यद् तस्य अस्ति अतः तत्र शीलः नाम तादृशः गुणः तस्मिन् अस्ति इति तस्मिन् अस्ति इति अभिवादशीलः तस्य इति षष्ठी अपि वृद्धोपसेविनः इति वृद्धोपसेविनः इति तत्र विभक्ति का
पञ्चमी अथवा षष्ठी
समीचीनं हा तत्र किन्तु तत्र शीलस्य इति षष्ठी इति दृष्ट्वा प्रायशः तत्रापि षष्ठी इति चिन्तयितुं
महोदय तत्र प्रथमा अपि च द्वितीया बहुवचनमपि भवितुमर्हति
हा 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 सत्यं सत्यं हा बहुवचनं सत्यं हा किन्तु षष्ठी प्रायशः अपि अस्ति वृद्ध उपसेवी वृद्धोपसेवी नाम वृद्धानां तत्र सेवनं करोति यः करोति तत्र वृद्ध वृद्धोपसेवी सेविनः इति षष्ठी यतोहि तत्र तस्य चत्वारि वर्धन्ते चत्वारि किं तस्य चत्वारि किं वर्धन्ते
गुणाः वर्धन्ते
हा तत्र आयुः
विद्या
यशः बलं बलम् इति चत्वारि चत्वारि वर्धन्ते तस्य इदानीं तत्र वृद्धः तत्र वृद्धोपसेविनः तत्र वृद्धानां सेवनं करोति तत्र किन्तु वृद्धानाम् इति तत्र किम् अस्ति वृद्धः इति तत्र वर्धनं वर्धनम् इति दृष्टवन्तः पूर्वम् अपि खलु तत्र वृद्धावस्था इति तत्र हा तत्र वर्धते इति इत्यतः तत्र वृद्धः इति अस्ति अत्र वृद्धः नाम यस्य वर्धनम् अभवत् किन्तु तत्र वयोवृद्धानाम् इति अस्ति चेत् तत्र किम् अस्ति
यः वयसि अग्रे अस्ति
सः वयोवृद्धः समीचीनं यः वयसि वृद्धः अस्ति अथवा वर्धितः तत्र यस्य वयसः वर्धनम् अभवत् सः वयोवृद्धः अपि ज्ञानवृद्धः सः कः
यस्मिन् ज्ञानम् अधिकमस्ति सः
ज्ञानवृद्धः अतः तत्र वयोवृद्धानां ज्ञानवृद्धानां च सेवनं यः करोति अपि ज्येष्ठानां तत्र ज्येष्ठानाम् इति तत्र पुनः तत्र तदेव अर्थः स्वीकर्तुं शक्नुमः अथवा तत्र ज्येष्ठानां नाम वयोवृद्धानाम् इति तत्र कुटुम्बे ज्येष्ठाः सन्ति अथवा तत्र हा अतः तत्र ज्येष्ठानां तत्र वयोवृद्धानाम् इति तेषां नमस्कारं करणीयमिति भावः अपि स्वभावः अपि तत्र तेषां सेवनं करणीयम् इति यस् सेवन इति तस्य किं किं वर्धन्ते आयुः
यशः बलं
बलं च इति समीचीनं भगिनि अस्तु इदानीं तत्र
ज्ञानवृद्धानां च सेवनं करोति तस्य आयुः विद्या यशः बलम् आयुः पुंलिङ्गे अस्ति विद्या स्त्रीलिङ्गे यशः पुंलिङ्गे बलं नपुंसकलिङ्गे चे च इति एतानि चत्वारि नपुंसकलिङ्गे अस्ति न महोदय
समीचीनं भगिनि उत्तमप्रश्नः यतोहि तत्र किम् अस्ति तत्र नियमः कः च इति अस्ति खलु च इति अस्ति चेत् तत्र किम् अस्ति समूहः अस्ति खलु
सो च इति पूर्वं कीदृशपदम् अस्ति तदेव
अन्तिमसदस्यस्य समीचीनं तत्र अन्तिमसदस्यः अत्र बलम् इति अस्ति इति कृत्वा तत्र एतानि चत्वारि इति स्वीकृतमस्ति सत्यं भगिनि हा यदि तत्र क्रमः भिन्नः आसीत् नाम तत्र विद्या अन्ते स्थापितम् आसीत् चेत्
चतस्रः
हा एताः चतस्रः वर्धन्ते इति समीचीनं भगिनि हा अस्तु
सेवनमपि नपुंसकलिङ्गेन महोदय
हा सेवनं स सत्यं भगिनी करोति सेवनं करोति तत्र पठनं करोति इति तादृशम् अर्थे
इत्युक्ते सेवः सेवः से फलम् इति अस्ति वा महोदय फलम् इति
न न फलं
न न न फलं फले फलानि
साक्षात् हा फलं सत्यं भगिनि हा अकारान्तपुल्लिङ्ग अकारान्तनपुंसकलिङ्गपदं हा सत्यं हा अस्तु तर्हि समीचीनं भगिनि अस्तु किं भगिनि हा इदानीम् इदानीं हा अस्तु भगिनि इदानीम् अग्रिमं पठति वा तत्र
आस्वादनस्य स्वभावः यस्य अस्ति यः वयोवृद्धानां ज्ञानवृद्धानां च सेवनं करोति
भगिनि तत्कृतं भगिनि अग्रिमं करोतु अग्रिमं करोतु सुजाता भगिनि अग्रिमं करोतु पञ्चभिः इति
सम्यक् न श्रूयते
अस्तु महोदय
एकवारं पठतु तदनन्तरम् अन्यपि पुनः पठतु एकवारं पठतु भगिनि हा
पञ्चभिः सह गन्तव्यं स्थातव्यं पञ्चभिः सह वक्तव्यं न दुःखं पञ्चभिः
हा अस्तु अस्तु भगिनि अस्तु धन्यवादः हा अस्तु भगिनि इदानीं तत्र अग्रे अस्तु तत्र हा गीताञ्जलि भगिनी अग्रे पठति वा एषः पञ्चभिः इति एव श्लोकः
आम् महोदय पञ्चभिः सह गन्तव्यं स्थातव्यं पञ्चभिः सह वक्तव्यं न दुःखं पञ्चभिः सह इत्युक्ते सर्वदा पञ्चभिः सह इति दत्तं तृतीया सह गन्तव्यं स्थातव्यं वक्तव्यम् अपि च पञ्चभिः सह दुःखं न
अस्तु 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 एकमेकं स्वीकुर्मः भगिनि अस्तु पञ्चभिः सह गन्तव्यं नाम
गन्तव्यम् इत्युक्ते तव्यत् प्रत्यय इत्युक्ते करणीयम् इत्युक्ते गमनीयमेव
हा तत्र हा गमनीयम् अथवा गन्तव्यं तत्र केवलम् एकाकी न गन्तव्यं किन्तु
हा इत्युक्ते जनैः सह गन्तव्यम् इत्युक्ते एकाकी मा
मास्तु तत्र अनेक अनेके जनाः सन्ति चेत्
अनेके जनाः इत्युक्ते
सन्ति चेत्
हा
समीचीनं भवति इति
भवति इत्युक्ते कीदृशजनाः तु अत्र
न दत्तम् अपि पञ्चः इति तस्य महत्त्वं नास्ति केवलम् अनेकजनाः भवन्तु इति तावदेव
तैः जनैः सह गन्तव्यम् इति अधोभागे तु बुद्धिमता जन
न न एकनिमिष हा अस्तु अस्तु हा तत्र अतः तत्र केवलम्
एकाकी
गच्छति चेत् तत् समीचीनं नास्ति अपि एकाकी एव अस्ति चेत्
अस्तु एकाकी मा गच्छतु पञ्चभिः इत्युक्ते
अनेकैः जनैः गच्छतु हा तत्र गच्छतु अनेकैः जनैः सह गच्छतु हा
जनैः सह स्थातव्यम् इत्युक्ते
हा तिष्ठतु नाम तत्र वसतु तत्र केवलम् एकाकी मा वसतु
अपि च एकाकी मा वदतु इत्युक्ते
हा तत्र केवलम् अस्तु अत्र अन्य कोऽपि नास्ति अहमेव अस्तु अहं किं करोमि इति यदि वदामि चेत् किं भवति
तदपि असमीचीनं
हा असमीचीनम् इति अतः तत्र किम् अस्ति इदानीं दुःखः
दुःखम् अन्यैः जनैः सह
स्मः वयं स्मः तत्र तदा दुःखं दुःखं न भवति दुःखं न भवति इति समीचीनं
भवति जीवतु
हा इति तात्पर्यं सत्यं हा
महोदय अत्र पञ्चभिः बहुवचनं तृतीय चतुर्थीविभक्ति किल
न तृतीय पञ्च इति
तृतीय
पञ्चैः पञ्चभिः सह गन्तव्यं तत्र सः अस्ति खलु अतः मित्रेण सह गच्छतु तत्र हा सीतया सह इति तृतीया भवति खलु सः अस्ति चेत् अतः तृतीया पञ्चभिः नाम पञ्चजनैः इति किन्तु तत्र पञ्च इति सङ्ख्यायाः महत्वं नास्ति तत्र पञ्च वा दश वा केवलम् एकः मास्तु इति तावदेव
महोदय तत्र मन्ये महोदय पञ्चभिः एक किञ्चित् महत्वम् अस्ति इत्युक्ते हस्ते तु पञ्च अङ्गुल्या अस्ति ते सर्वे भिन्नभिन्न सन्ति चेत्
हा तत् प्रायश तदपि अस्ति इति मन्ये भगिनि हा किन्तु तत्र न उक्तम् अतः न जानामि तद् भवितुमर्हति समीचीनमेव भगिनि हा तत्र हा तदपि भवितुमर्हति हा अस्तु किं महोदय
स्थातव्यम् इत्युक्ते वसतु
हा तत्र स्थातव्यं तिष्ठतु इति अर्थः किन्तु तत्र स्थातव्यं तत्र गन्तव्यं तत्र कर्तव्यम् इति जानाति खलु महोदय मधुसूदन महोदय कर्तव्यं नाम हा कर्तव्यं करणीयं तदेव करोतु अन्यत् मा करोतु इति तत्र कर्तव्यम् इति तादृशं स्थातव्यं नाम तदेव तिष्ठतु तत्र अन्यैः सह तिष्ठतु एकाकी मा तिष्ठतु वक्तव्यं तत्र वदतु केवलं स्वमेव मा वदतु अन्यं प्रति वदतु अन्यम् उद्दिश्य वदतु केवलम् अस्तु अहं किं करोमि अहं किं कृतवान् इति तादृशसम्भाषणं मा करोतु इति हा अस्तु शोभा भगिनी प्रश्नः आसीत् वा
आं महोदय तत्र कोश संस्कृत डाट् टुडे इत्यस्मिन् दृष्टवती पञ्चजनाः इत्युक्ते द फैव् पीपल्स् आर् मेन्शन् अण्डर् वेरियस् नेम्स् इन् वेदिक् लिटरेचर् इति दत्तं महोदय हू आर् मेण्ट् बै द फैव् इस् वेरि अन्सर्टन् किन्तु तत्र ऐतरेय ब्राह्मणा एक्स्प्लेन्स् द फैव् टु बि गाड्स् मेन् गन्धर्वास् अप्सरास् स्नेक्स् किमपि तत्र अन्यान् अर्थानपि अन्येषु अर्थेषु अपि भवति किन्तु पञ्च जनाः इत्युक्ते तत्र भिन्नभिन्नरीत्या अर्थं भवति इति भाति महोदय
हा तत् भवितुमर्हति भगिनि किन्तु अधोभागे तत्र विवरणं यदस्ति तत्र एकवारं पठतु भगिनि
श्रुतवती महोदय
न तत्र अधोभागे तत्र यद् दत्तमस्ति तत्र तु पञ्च इति सङ्ख्यायाः
तत्र अनेकाः इति अपि भवितुमर्हति किन्तु एतादृशम् अर्थमपि
अस्तु हा प्रायशः अस्ति अस्तु भगिनि हा समीचीनं हा धन्यवादः अस्तु अग्रे तत्र हा भेदा भगिनी अग्रे तत्र अधोभागे तत्र विवरणमस्ति पठति वा भगिनि
बुद्धिमता जनेन पञ्चभिः जनैः सह गमनं करणीयं बुद्धिमता जनेन पञ्चभिः
तृतीया इदानीं भगिनि तत्र करणीयम् इति अस्ति तत्र करणीयमस्ति चेत् तत्र कर्मणि प्रयोगः भवति तत्र मया एतत् कार्यं करणीयम् इति अहम् एतत् कार्यं करोमि न मया एतत् कार्यं करणीयम् इति अस्ति जानाति खलु एतद् अस्तु इदानीं तत्र करणीयमस्ति तत्र कर्ता कः अस्मिन् वाक्ये
गमनं
न तत्र मया कार्यं करणीयम्
कार्यम् अत्र कार्यं गमनमस्ति न
अस्तु कार्यं स्थाने गमनम् इदानीं मया स्थाने किम् अस्ति
मया स्थाने पञ्चभिः जनैः
तत्र सः अपि अस्ति खलु तत्र सः अपि अस्ति खलु तत्र
पञ्चैः जनैः सः
अतः तत्र सः किमर्थं जनैः इति तृतीयविभक्त्यन्तम् अस्ति तत्र
सः सः कारणं
हा सः अस्ति इति कृत्वा तत्र तृतीयविभक्त्यन्तम् अस्ति अतः तत्र हा किन्तु मया इति तत्र सः इति अस्ति वा मया कार्यं करणीयम् इति तत्र सः अस्ति वा हा अतः तत्र सः इति अस्ति अतः तत्र तृतीयविभक्त्यन्तम् अस्ति चेत् तत् मया स्थाने न आगच्छति खलु
बुद्धिमता जनेन
हा बुद्धिमता जनेन गमनं करणीयम् बुद्धिमता जनेन गमनं करणीयं नाम बुद्धिमान् जनः यः अस्ति तेन गमनं करणीयम् एकाकी करणीयं वा न
पञ्चभिः
जनैः सह गमनं करणीयम्
वाक्यस्य अर्थं न
केवलम् एकाकी तत्र यात्रां गच्छति अथवा अन्यत्र गच्छति तत्र एकाकी मा गच्छतु इति तावदेव
बुद्धिमता जनेन इत्युक्ते
बुद्धिमान् जनः बुद्धिमान् यस्य बुद्धिः अस्ति सः बुद्धिमान्
बुद्धिमान् जनाः पञ्चभिः जनैः सह गमनं करणीयं
न बुद्धिमता जनेन यतोहि तृतीया भवति तत्र किन्तु बुद्धिमान् जनः स बुद्धिमान् जनः किं करोति सर्वदा अन्यैः जनैः सह गच्छति एकाकी न गच्छति इति अतः अग्रिमं
पञ्चभिः बहुभिः जनैः सह
तत्र सः अस्ति चेत् किं करणीयं भगिनि तत्र पञ्चभिः जनैः सह इति तत्र एकवारं वदतु नो चेत् तत्र सः इति तत्र सम्बन्धः अस्ति इति न दृश्यते खलु तत्र पञ्चभिः जनैः तदनन्तरं यदि सः इति वदामः तत्र किं भवति अस्तु सः इति भिन्नं पञ्चभिः जनैः इति भिन्नम् इति चिन्तयामः अतः किं यदा वदामः किं वदामः पञ्चभिः जनैः सह तदा अवगच्छामः यः श्रोता अस्ति सः अवगच्छति ओ अस्तु पञ्चभिः जनैः सह अस्तु एतत् खण्डम् अस्ति तत्र अस्मिन् खण्डे सः अस्ति अतः तत्र तृतीया विभक्तिः अस्ति इति अतः इदानीं द्वितीयवाक्यं पठतु
सः पञ्चभिः जनैः सह स्थातव्यं वक्तव्यं च
तत्र केन स्थातव्यं वक्तव्यं च
केन बुद्धिमता जनेन
हा पुनः बुद्धिमता समीचीनं भगिनि हा बुद्धिमता जनेन किं
पञ्चभिः जनैः सह स्थातव्यं
वक्तव्यं च
स्थातव्यम् अस्ति स्थातव्यं मीन्स् स्थापितं करणीयं वा
न न स्थातव्यं स्थातव्यं नाम तिष्ठ तत्र तिष्ठतु तिष्ठति तिष्ठति इति तत्र स्थातव्यं
वक्तव्यं च
तत्र
एवं पञ्चभिः बहुभिः सह बुद्धिमता जनाः एवं पञ्चभिः जनैः
हा इदानीं बुद्धिमता जनेन इति मास्तु हा इदानीं केवलं
पञ्चभिः सह जीवनेन कदापि दुःखं न भवति
इदानीं तत्र किम् अस्ति
न अवगतं महोदय
अस्तु भगिनि तत्र दुःखं तत्र क्रियापदं स्वीकुर्मः क्रियापदं किमस्ति भवति न भवति किं न भवति
दुःखं
न भवति कदापि दुःखं न भवति तावत् अवगतं खलु तत्र जीवनेन कदापि जीवनेन इति तत्र कारणं नाम तत्र अथवा तत्र कारणम् अथवा करणम् अपि तत्र प्रायशः तत्र हा तादृशं जीवनेन कदापि दुःखं न भवति केवलम् एकाकी इति तादृशजीवनेन इति वा न न तत्र बहुभिः सह जीवनेन यदि तत्र अनेकैः जनैः सह अनेकः इति अस्तु
अनेकैः
इति चिन्तयामि किन्तु न स्मरामि अनेकैः जनैः इति वदामि, किन्तु हा प्रायशः तदपि समीचीनं। हा तत्र हा यदि जीव जीवामः तर्हि दुःखं न प्राप्नुमः, न भवति दुःखं न भवति। तत्र केवलम् एकाकी जीव कोऽपि जीवति चेत् तत्र दुःखम् अनुभवति इति।
एकाकी जीवनमस्ति चेत् दुःखम् अनुभवति, परन्तु यदि
अनेकाः जनाः सन्ति
तेन
अनेके जनाः सन्ति चेत् तत्र दुःखं न भवति इति तात्पर्यं। तत्र
मम पार्श्वे एकं पुस्तकम् अस्ति महोदय, सुभाषितम् इति, तत्र दत्तमस्ति, आङ्ग्लभाषायां वदामि, इन् सनातनधर्म एव्रि डिजिट् हेस् सिम्बालिकल् इम्पार्टेन्स् इन्क्लूडिङ्ग् द नम्बर् फैव्। फार् एक्साम्पल् द ह्यूमन् बाडी इस् मेड् आफ़् फैव् एलिमेण्ट्स् फैर् अर्थ् एर् वाटर् अण्ड् स्पेस्। देर् आर् फैव् सेन्सरि आर्गन्स् अण्ड् फैव् आर्गन्स् फार् पर्फार्मिङ्ग् वेरियस् टास्क्. There are five components of Indian time management system called Tithihi, Vara, Nakshatra, Karan and Yoga. Five methods of practicing Ayurveda. In bracket, Hindu system of medicine. Five ingredients in the prasadam offered to gods. The above Subhashita has stressed this aspect of the number five. That's the Masimha.
Astu, dhanyavada bhagini. Astu, haa. समीचीनम् अस्तु। अतः तत्र एतावत् तत्र एकं द्वे त्रीणि चत्वारि पञ्च सर्वं कृतं। हा समीचीनं भगिनि, अस्तु अस्तु। अग्रे तत्र नरेश् महोदय अग्रे अग्रिमं पठति वा
महोदय? उद्यमः साहसं साहसं धैर्यं बुद्धिः शक्तिः पराक्रमः षडेते यत्र वर्तन्ते तत्र देवः सहायकृत
सहायकृत् अधोभागे अपि एतत् विवरणं पठतु महोदय।
परिश्रमः साहसं धैर्यं बुद्धिः शक्तिः पराक्रमः इत्येते षड्गुणाः यत्र सन्ति तत्र ईश्वरः सहायं करोति।
तत्र देवः सहायकृत् सहायं करोति। तत्र यत्र षड् एते वर्तन्ते वर्तन्ते नाम तत्र सन्ति। हा तत्र उद्यमः नाम परिश्रमः,
साहसं धैर्यं बुद्धिः शक्तिः पराक्रमः
पराक्रमः
षड्गुणाः सन्ति।
हा इति समीचीनं महोदय, अस्तु। हा तत्र इदानीं तत्र षड् गुणाः इति आगतम्, अस्तु समीचीनम्। सो तत्र प्रायशः किमपि अधिकं वक्तव्यं नास्ति इति मन्ये, अस्तु। अतः तत्र अग्रे सरामः तर्हि, अस्तु अग्रे तत्र शोभा भगिनी अग्रे तत्र पठति वा तत्र उरसा शिरसा इति?
आं महोदय। उरसा शिरसा दृष्ट्या मनसा वचसा तथा पद्भ्यां कराभ्यां कर्णाभ्यां प्रणामोष्टाङ्ग उच्यते। प्रणाम अष्टाङ्ग प्रणाम प्रणाम
अष्टाङ्ग प्रणाम इति उच्यते। अष्टाङ्ग स अष्टाङ्ग नाम साष्टाङ्गप्रणामः इति यद् वदामः तत्र तत् कीदृशः तत् कीदृशम् इति तत्र विवृतमस्ति। तत्र किं किम् अस्ति तृतीया उरसा
उरसा इत्युक्ते तत्र वक्षस्थलेन इति मन्ये।
हा उरः उरः उरस् इति सकारान्तपदम् उरः उरसा तृतीया
उरः उरसा अस्तु
उरस् पुनः शिरः
शिरसा शिरः शिरसा शिरस् इति अस्ति शिरसा तृतीयविभक्तौ। दृष्टिः दृष्ट्या मनस् पुनः मनसा तृतीया वचस् वचसा तथा पद्भ्याम् इत्युक्ते द्वयोः पादाभ्यां कराभ्यां द्वे करद्वयं कराभ्यां कर्णद्वयं कर्णाभ्यां प्राणं प्रणामः क्षमतां प्रणामः अष्टाङ्ग इति तत्र अष्ट अङ्गै अष्टैः अङ्गैः कृतं प्रणामं प्रणामं प्रणामः उच्यते
इदानीं तत्र अष्ट अङ्गाः के इति तत्र कैः अष्ट अङ्गैः तत्र सः एषः प्रणामः भवति तत्र
उरसा शिरसा दृष्ट्या मनसा वचसा
इदानीं पञ्चः पञ्च जातं
पञ्च पद्भ्यां कराभ्यां कर्णाभ्यां
इति पुनः
तत्र अष्ट
इति अष्टः
अष्ट
अष्टाङ्गः
अष्टाङ्गः किन्तु तत्र तत्र अष्टाङ्गः तत्र मनस् वचस् अपि आगच्छति मनः वचः
सत्यम् अपि दृष्टिः
अङ्गाः न सन्ति किन्तु दृष्टिः
तत्र अङ्गः इति देहस्य अङ्गः इति न किन्तु प्रणामस्य अङ्गः अष्टः सन्ति इति
अस्तु महोदय
तत्र प्रणामः तत्र अष्ट अङ्गैः कृतम् इति
किन्तु तर्हि तत्र शिरस् दृष्टि क्षम्यतां शिरस् न दृष्टिः मनस् वचस् ते अपि अङ्गाः इति उच्यते
तत्र तु साक्षात् तत्र शिरः पुरः इति तत्र दृष्टिः तत्र साक्षात् अङ्गाः सन्ति देहस्य किन्तु अपि पद्भ्यां कराभ्यां तदपि किन्तु मनः वचः तत्र तत्र
दृष्टिः
अपि इति अतः तत्र साष्टाङ्गम् इति तत्र इदानीं जानीमः तत् कथं करणीयम् इति
केवलम् अङ्गानि न अङ्गाः न
तत्र मनसा अपि तत्र प्रणामः करणीयं तत्र अतः भावः अपि भावस्य अपि प्रामुख्यत्वम् अस्ति तत्र अस्तु प्रणामः करोत् प्रणाम नमतु इति अस्ति अस्तु करोमि इच्छामि न इच्छामि किन्तु करोमि इति भवति खलु तादृश प्रणामः नास्ति अत्र तत्र भावः अपि तत्र वचसा मनसापि
तत्र
इति अस्तु तत्र अग्रिमपुटे तत्र
अत्र तु अष्टाङ्ग इति दत्तं साष्टाङ्ग इत्युक्ते
सा नाम सः इति तैः सः इति अर्थे तत्र सा नाम सः
साष्टाङ्ग नमस्कार
स नाम अष्टाङ्ग सः अष्टाङ्गैः सह नमस्कारं साष्टाङ्ग नमस्कारम् इति तत्र कोऽपि आगच्छति भगिनि तत्र रमेशः आगच्छति अस्तु भवत्याः गृहम् आगच्छति रमेशः सः एकाकी न आगच्छति पत्नी अपि आगच्छति अतः तत्र रमेशः सपत्नी आगतवान् इति वदामः तत्र सपत्नी पत्न्या सह इति अर्थे
केवलं स न महोदय
अतः तत्र अपि स योगः अष्टाङ्गः साष्टाङ्गः इति
अस्तु धन्यवादः
विषये एकं वदामि
वदतु भगिनि
वयं तु पठितवन्तः सङ्ख्याशब्दाः अपि च ते रूपाणि कानि इत्युक्ते विभक्तिरूपाणि कानि कथं सर्वं किन्तु यदि पूरणसङ्ख्या अस्ति चेत् तत्र तु यथा दत्तम् इत्युक्ते पुंलिङ्गम् अस्ति चेत् पञ्चमः दत्तम् इत्युक्ते रामवत् इति विभक्तिरूपाणि भवन्ति न महोदय
पञ्चमः इति तत्र अग्रिमपाठः एषः एव अस्ति भगिनि
मम एकः प्रश्नः अस्ति मनसि आयाति किमस्ति एकम् अन्यवर्गस्य विषये वयं चर्चितवन्तः तत्र अहं किञ्चित् भ्रमामि इत्युक्ते पञ्चमी अस्ति चेत् नदीवत् अस्ति पञ्चमम् अस्ति चेत् फलवत् अस्ति न महोदय तदेव
सत्यं तत्र सत्यं वनं तत्र अकारान्तपुल्लिङ्गः वा अकारान्तनपुंसकलिङ्गः वा अथवा नदीवत् ईकारान्त स्त्रीलिङ्गपदम् इति
ये नियमाः वयम्
एतावत् न पठितवन्तः भगिनि, यतोहि एतावत् केवलं सङ्ख्या इति विषये एव पठितवन्तः. अग्रिमपाठः भवति तत्र पूर्णप्रत्ययान्ताः इति.
अस्तु अस्तु, किन्तु स्थूलरूपेण तु सङ्ख्या यावत्
इदानीं न भिन्न, तद् भिन्नम् अस्ति भगिनि. इदानीं तत्र सङ्ख्याविषये भिन्नम् अस्ति, अपि तत्र पूर्णप्रत्ययान्ताः तेषां विषयः भिन्नः अस्ति भगिनि, भिन्नः. हा, यतोहि तत्र अन्तिमवर्णः तत् अपि लिङ्गं नियतलिङ्गं तत् सर्वं भिन्नम् अस्ति भगिनि, अतः मास्तु. हा
अस्तु अस्तु अस्तु, तदेव महोदय, धन्यवादः.
अस्तु अस्तु, हा अस्तु, तर्हि इदानीं तत्र अन्तिमभागः अस्ति. तत्र प्रिया भगिनी अन्तिमभागः पठति वा भगिनि, तत्र अग्रिमेपुटे तत्र वक्षस्थलेन इति. हा
ओ अस्तु महोदय, वक्षस्थलेन मस्तकेन दृष्ट्या मनसा वाचा पादाभ्यां हस्ताभ्यां कर्णाभ्यां च क्रियमाणः नमस्कारः साष्टाङ्गनमस्कारः इति कथ्यते.
हा, अतः तत्र
अत्र सर्वे तृतीया विभक्त्याम् अस्ति. एतत् अष्टा अङ्गाः उपयुज्य नमस्कारं वयं करोमि कुर्मः चेत् तस्य नाम साष्टाङ्गनमस्कारः
इति भवति. हा, इति अस्ति, समीचीनं भगिनि. हा, तत्र साष्टाङ्गनमस्कारः इति युक्ते कः इति अत्र दत्तमस्ति, समीचीनं भगिनि. हा अस्तु, तत्र अस्तु, समयः अपि जातः. अस्तु, उषा भगिनी अत्र शान्तिमन्त्रं वदति वा भगिनि, तदनन्तरं.
ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्तिः शान्तिः शान्तिः. ॐ श्रीगुरुभ्यो नमः, हरिः ओम्.
धन्यवादः भगिनि, सर्वेभ्यो नमः, धन्यवादः, अग्रिमवर्गे मिलामः, नमस्कारः.